पञ्चदशोऽध्यायः पुरुषोत्तमयोगः। श्री भगवान् उवाच, ऊर्ध्वमूलं अधःशाखं अश्वत्थं प्राहुरव्ययं छन्दांसि यस्य पर्णानि यः तं वेदसवेदवित्। अधश्च ऊर्ध्वं प्रसृताः तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः, अधश्च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके। न रूपमस्येह तथोपलभ्यते, नान्तः न चादिर्न च संप्रतिष्ठा, अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा। ततः पदं तत् परिमार्गितव्यं यस्मिन् गतान निवर्तन्ति भूय, तमेव चाद्यं पुरुषं प्रपद्ये, यतः प्रवृत्ति प्रसृता पुराणी। निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः, द्वन्द्वैः विमुक्ताः सुखदुःखसंज्ञैः गच्छन्त्यमूढाः पदमव्ययं तत्। न तद्भासयते सूर्यो न शशाङ्को न पावकः, यद्गत्वा न निवर्तन्ते तद्धाम परमं मम। ममैवांशो जीवलोके जीवभूतः सनातनः, मनः षष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति। शरीरं यत् अवाप्नोति यच्चापि उत्क्रामतीश्वरः, गृहीत्वा एतानि संयाति वायुः गन्धान् इवाशयात्। श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च, अधिष्ठाय मनश्चायं विषयान् उपसेवते। उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं, विमूढा न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः। यतन्तः योगिनश्चैनं पश्यन्ति आत्मनि अवस्थितं, यतन्तः अपि अकृतात्मानः नैनं पश्यन्ति अचेतसः। यदादित्यगतं तेजो जगद्भासयते अखिलं, यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्। गाम् आविश्य च भूतानि धारयामि अहम् ओजसा, पुष्णामि च औषधि सर्वा सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचामि अन्नं चतुर्विधम् सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृति ज्ञानमपोहनं च वेदैश्च सर्वैः अहमेव वेद्यो वेदान्तकृत् वेदविदेव चाहम् द्वौ इमौ पुरुषौ लोके क्षरश्च अक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थ अक्षर उच्यते उत्तमः पुरुषः तु अन्यः परमात्मेत्युदाहृतः यः लोकत्रयमाविश्य बिभर्ति अव्यय ईश्वरः यस्मात् क्षरमतीतोऽहम् अक्षरादपि च उत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् स सर्ववित् भजति माम् सर्वभावेन भारत इति गुह्यतमं शास्त्रम् इदमुक्तं मया अनख एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः समाप्तः।